रुद्र यह शिव भक्तों का सर्वप्रथम मंत्र माना गया है। शिव संप्रदाय के इस रुद्र पाठ को वैष्णव पंथ के लोगों ने भी अपनाया है। कर्म मार्ग तथा ज्ञान मार्ग दोनों ही में यह मंत्र उपयुक्त है। रुद्र के दो भाग हैं। प्रथम भाग का नाम है चमक और दूसरे भाग का नाम है नमक। चमक में शंकर भगवान की स्तुति है और नमक में भक्तों ने अपनी इच्छाएं व्यक्त की है। कैलासाधिपति की प्रलयंकारी शक्ति का अनुभव लेते हैं इसी प्रभावशाली मंत्र के माध्यम से।
ओम श्रीलाहस्पतिषद्विश्वे देवा सूक्तवा जापृथिवी मातरमायुगसी मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमदी देवेभ्यो वाचमद्यासकशुश्रूषेण्यां मनुष्येभ्यस्तम्भा देवा अवन्तु शोभायै पितरोऽनुमदन्तु। ॐ शान्ति शान्ति शान्तिः। ॐ नमस्ते रुद्रमन्यव उतो तैषवे नमः। नमस्ते अस्तु धन्वने बाहुभ्यामुदते नमः। या तैषु शिवतमा शिवं बभूवते धनुः शिवाशरव्या या तवतया नो रुद्रमृडया या ते रुद्रशिवा तनूरघोरापापकाशिनी तयानस्तनुवाशन्तमया गिरिशन्ताभिधाशीः या मिथुं गिरिशन्तहस्ते बिभर्षस्तवे शिवाङ्गिरित्रदां कुरु मायिगासी पुरुषं जगत शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमित्यगतयक्ष्मगसुमना असत अर्ध्यवोचदधि वक्ता प्रथमो दैव्योऽभिषव अहीग्रश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असव्यताम्रो अरुण उत भगृः सुमङ्गलः ये ते मा गरुदा अभितो दिक्षुश्रिताः सहस्रशो वैशाखहेडयीमहे असव्यो वसरपतिनीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृळयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय भीरुषे अथो ये अस्य सद्वानो हन्तेभ्यो करन्नमः प्रमुञ्च धन्वनस्वमुभयोरात्मीयोर्जाम् याश्च देहस्तयुषव पराता भगवो वप अवतद्यधनुस्त्वगसहस्राक्षशतेषु हे निशीर्यशल्यानाम् मुखा शिवो नः सुमना भव विद्यन्दनो कपर्दिनो विशल्यो बाणवागुता अनेशन्नस्येषव आभुरस्य निषङ्गतिः या ते हेतिर्मीढुष्टमास्ते बभूवते धनुः त्वयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाया नाथदाय धृष्णवे उभाभ्यामुदते नमो बाहुभ्यान्तवदन्वने परिते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः अथो यरिषुधिस्तवारे अस्मन्निधेहिताम् नमो हिरण्यवाहवे सेनान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः सस्पिञ्जरायद्विषीमते पथीनां पतये नमो नमो बब्धुषाय विव्याधिनेन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय तथा विने क्षेत्राणां पतये नमो नमः सूतायाहन्त्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृताय औषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्थीनां पतये नमो नमः कृष्णवीताय धावते सत्वनां पतये नमः नमः सहमानाय निव्याधिनाव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे सेनानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायूना पतये नमो नमो निषेरवे परिचरायारण्यानां पतये नमो नम सृकादिभ्यो जिहाघो सद्भ्यो मुष्णतां पतये नमो नमो श्रीमद्भ्यो नक्तञ्जरद्भ्यः प्रकृन्दानां पतये नमो नम उष्णीषिणे गिरिजराय पुलुञ्जानां पतये नमो नम इषुमद्भ्यो धन्वाविभ्यष्टवो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यष्टवो नमो नम आयच्छद्भ्यो विसृज ो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्चवो नमो नम आसीने भ्यश्चयानेभ्यश्चवो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्चवो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्चवो नमो नमस्तभाभ्यस्तवापदिभ्यश्चवो नमो नमो अश्वेभ्योऽश्वपदिभ्यश्चवो नमः नम आव्याधीभ्यो विविध्यन्तीभ्यष्टवो नमो नम उगणाभ्यस्तृमहतीभ्यष्टवो नमो नमो कृत्सेभ्यो कृत्सपतिभ्यष्टवो नमो नमो व्रातेभ्यो व्रातपतिभ्यष्टवो नमो नमो गणेभ्यो गणपतिभ्यष्टवो नमो नमो विरूपेभ्यो विश्वरूपेभ्यष्टवो नमो नमो महद्भ्यः कुल्लकेभ्यश्चवो नमो नमो रथिभ्यो रथेभ्यश्चवो नमो नमो रथेभ्यो रथपतिभ्यश्चवो नमो नमः सेनानिभ्यश्चवो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्चवो नमो नमस्तक्षभ्यो रथकारे भ्यश्चवो नमो नमः कुलारेभ्यः कर्मारेभ्यश्चवो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्चवो नमो नमः ऋषुकृद्भ्यो धन्वकृद्भ्यश्चवो नमो नमो मृगयुभ्यश्वनेभ्यश्चवो नमो नमश्वभ्यश्वपदेभ्यश्चवो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपालदिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो विदिशाय च जिपिविष्टाय च नमो वीरुष्टमाय केशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च समृद्ध नमो अग्रियाय च प्रथमाय च नम आशवे चाजिराय च नम श्रीभ्रियाय च श्रीभ्याय च नम ऊर्म्याय चावस्वन्याय च नम स्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जगन्याय च बुद्धियाय च नमः सोऽभ्याय च प्रतितर्याय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च कल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्राय प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च नम शूराय चावभिन्दते च नमो वर्णिने च वरुणिने च नमो बिल्मिने च कवचिने च नम श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चान्याय ज्ञानाय च नमो धृष्णवेश प्रमृताय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णे च वेजायुधिने च नमस्वायुधाय च सुधन्वने च नमस्तृत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमस्तूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्षाय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नम इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस्ताम्राय कारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिव य च नमस्तीभ्याय च पूज्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आचार्याय चालाद्याय च नमः षष्ट्याय च भेन्याय च नमः श्रीपद्याय च प्रवाह्याय च नम इन्याय च प्रपद्याय च नमः शिवशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो ओष्ठ्याय च विह्याय च नमस्तर्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेष्ट्याय च नमः पागसव्याय च रजस्याय च नमः शुष्याय च हरित्याय च नमो ोप्याय च नप्याय च नमः पूर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो बपुरमाणाय च विघ्नते च नमः आखिलते च प्रखिलते च नमो वक्रिकेभ्यो देवानाभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः आनिरहतेभ्यो नमः आमीवत्केभ्यः द्रापे अन्तस्पदे दरिद्रन्नीलोहिता एषाम् पुरुषाणामेषाम् पशूनाम् माभेर्मा रोमो येषाम् किञ्च नाममत या ते रुद्रशिवातनो शिवा विश्वाभेषजी शिवा रुद्रद्यभेषजीतया नो मृडजीवते इमा गरुद्राय तमसे कपर्दिने क्षयद्वीराय प्रवरामहे मतिम् यथा नश्यमसद्विपदे च दुष्पदे विश्वम् पुष्टङ्गामे अस्मिन्ननातुराम् मृडानो रुद्रोतनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्छञ्चयोश्च मनुराय चे पिता तदश्याम तव रुद्रप्रणीतौ मानो महान्तमुतमानो अर्भकम् मानवुक्षन्तमुतमानवुक्षिताम् मानो वली पितरम् मोतमातरम् प्रिया मानस्तनुवो रुद्ररीरिषः मानस्लोकेतनये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामितो वधीरहविष्मन्तो नमसा विधेमते आराते गोम्न उत पूरुषमे क्षयद्वीराय सुम्नमस्मे ते अस्तु रक्षाजनो अधिजदेव ब्रूयराजनशरम यच्छद्विवर्हाः स्तुहि श्रुतम् गरत संयुवानम् मृजन्न भीममुपात्मुग्राम् मृडाय रित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः परिणो रुद्रस्य हेतिरवृणक्तु परिद्वेषस्य दुर्मतिरघायोः अवस्थिरामरुणध्यस्तनुष्वीर्वस्तोकायतनयाय मृडया नीदुष्टमशिवतमशिवो नः सुमना भव परमे वृक्षायुधन्निधाय मृत्युम्बधानाचरपिना बिभ्रदावहि विकीर्तविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रवाहेतयोऽन्यास्मन्निवपन्दुलाः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुहाभिः सहस्राणि सहस्रशो ये रुद्राधिभूम्याम् सहस्रयोजने वधन्वानि तन्मसि अस्मिन् महत्यर्णवेऽन्तरिक्षे भवाधि नीलग्रीवाश्रितिकण्ठाश्चर्वाधराचराः उपश्रिताः ये वृक्षेषु सत्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखासः कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विवधो जनान् ये पथाम् पथिरक्षय ऐलभृदाय व्युधः ये तीर्थानि प्रचरन्ति श्रुतावन्तो निषङ्गिणः य एतावन्तश्च भूयागोषश्च दिशो रुद्राविदस्थिरे तेषागो सहस्रयोजने वदन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्यायेऽन्तरिक्षे ये दिव्ये कामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृणयन्तु देयम् विष्णो यश्च नो वेष्टितम् भोजम् भेदामि ॐ अधुना विष्णु सजोषसे मा वर्धन्तु वाङ्गिरः युग्मैर्वाजे विराघतम् वाजश्च मे प्रसवश्च मे प्रयतिष्ट मे प्रसितिष्ट मे धीतिष्ट मे क्रतुष्ट मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिष्ट मे ज्योतिष्ट मे सुमश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुष्ट मे चित्तम् च माधीतम् च मे वाक्य मे मनश्च मे चक्षुष्ट मे श्रोत्रम् च मे दक्षश्च मे बलम् च ममोजश्च मे सहश्च मायुश्च मे जरा च आत्मा च मे तनु ष्ट मे चर्म च मे वर्म च मे वाणि च मे स्थानि च मे परोवाणि च मे शरीराणि च मे यैष्ठ्यम् च महाधिपत्यम् च मे मन्युश्च मे भामश्च मे मष्टमेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्ष्मा च मे त्राहुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे विशिष्ट मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुखम् च मे सुपथम् च मरुद्धम् च मरुद्धिष्ट मे क्लुप्तम् च मे क्लुप्तिष्ट मे मतिष्ट मे सुमतिष्ट मे ञ्च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे त्वगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञातरम् च मे सोष्ठ मे प्रसोष्ठ मे शीलम् च मे यश्च मृतम् च मे मृतम् च मे यक्ष्मम् च मे नामयश्च मे जीवाविष्ट मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुखम् च मे शयनम् च मे सुषा च मे सुनम् च मे ऊर्ज मे सूनता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सकृच्च मे सभीदिष्ट मे कृष्ट मे वृष्टिष्ट मे दरीत्रं च मौद्भिद्यं च मे रयिष्ट मे रायश्च मे पुष्टं च मे पुष्टिष्ट मे विभुच मे प्रभुच मे बहुच मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे कृतिष्ट मे पूयवाश्च मेन्नं च मे पृच्च मे व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे बोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्माश्च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे शिखराश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे सीधं च मे द्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च मावश्च मे वीरुधश्च मौढलयश्च मे कृष्णपज्यं च मे कृष्णपज्यं च मे ग्राम्याश्च मे पशवारण्याश्च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश्च मे भूतं च मे भूरिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे धनश्चम एवश्चमयिश्च मे गतिश्च मे अग्निश्च महीन्द्रश्च मे सोमश्च महीन्द्रश्च मे सविता च महीन्द्रश्च मे सरस्वती च महीन्द्रश्च मे पूषा च महीन्द्रश्च मे बृहस्पतिश्च महीन्द्रश्च मे मित्रश्च महीन्द्रश्च मे वरुणश्च महीन्द्रश्च मे त्वष्टा च महीन्द्रश्च मे धाता च महीन्द्रश्च मे विष्णुश्च महीन्द्रश्च मे श्रीणौ च महीन्द्रश्च मे मरुतश्च महीन्द्रश्च मे विश्वे मे देवा इन्द्रश्च मे पृथिवी च महीन्द्रश्च मेन्दरिक्षं च महीन्द्रश्च मे द्यौश्च महीन्द्रश्च मे दिशश्च महीन्द्रश्च मे मूर्धा च महीन्द्रश्च मे प्रजापतिश्च महीन्द्रश्च मे अगरुष्ट मे रश्मिश्च मे दाव्यश्च मेधिपतिष्टम उपागरुष्ट मेन्दर्यामश्चम ऐन्द्रवायवश्च मे मैत्रावरुणश्चम आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्दीचम आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मे त्रिग्राह्या ष्ट मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रष्टम आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हारियोजनश्च मे यजमश्च मे परिजिष्ट मे वेदिष्ट मे जिष्ठियाश्च मे स्पृशश्च मे चमसाश्च मे गावाणश्च मे स्वरवश्चम उपरवाश्च मे दिशवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृश्चम आदवनीयश्च मग्निर्घ्रं च मे हविर्धारं च मे गृहाश्च मे सदश्च मे पुरोडाशाष्टमे पञ्चदाष्टमे वभृतष्टमे स्वराकारष्टमे अग्निष्ट मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे धृतिश्च मे धृतिश्च मे द्यौश्च मे शक्वरीरङ्गुलयोदिशश्च मे यज्ञेन कल्पन्तामृत्य मे साम च मे स्तोमश्च मे यजुष्ट मे दीक्षा च मे तमष्टमलुष्ट मे व्रतं च मे होरात्रयोर्वृष्ट्या बृहद्रतन्त्रये च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्र्यविष्ट मे त्र्यवीत मे नित्यवा च मे नित्यौ हि च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्स मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौ हि च मे पष्ठवाच्च मे पष्ठौ हि च म उक्षा च मे वशा च मृढवश्च मे वेहश्च मे नड्वाच्च मे धेनुश्च मायुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पता ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता श्रोत्रयज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पता यज्ञो यज्ञेन कल्पता एकाच मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च मयेकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च मयेकविंशतिश्च मे त्रयोविंशतिश्च मे पञ्चविंशतिश्च मे सप्तविंशतिश्च मे नवविंशतिश्च मयेकत्रिंशच्च मे त्रयस्त्रिंशच्च मे चतस्रश्च मे अष्टौ च मे द्वादश च मे षोडश च मे विंशतिश्च मे चतुर्विंशतिश्च मे अष्टाविंशतिश्च मे द्वात्रिंशच्च मे षट्त्रिंशच्च मे चत्वारिंशच्च मे चतुश्चत्वारिंशच्च मे अष्टाचत्वारिंशच्च मे वाजश्च प्रथमश्चाभिजश्च क्रतुश्च सुवश्च मूढा च व्यश्नियष्टान्त्यायनष्टान्त्यश्च भुवनश्च भुवनश्चाधिपतिष्ठा ॐ इडादे बहोर्मनुर्यज्ञनीर्बृहस्पतिरुक्ता मदानि सगषद्विश्वे देवा सोक्तवाच पृथिवीमातरमामायगीर् मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवनिष्यामि मधुमदीन् देवेभ्यो वाचमुद्या सगशुश्रूषेण्याहम् मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरोऽनुवदन्तु ॐ शान्तिः शान्तिः शान्तिः।